हरिः ओम्। अगदाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे। श्रीमहागणपतये नमः। गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। श्रीमहासरस्वत्यै नमः।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। हर्षिता भगिनी नमस्कारः।
नमस्कारः महोदय।
अस्माकं प्रवर्तमानविषयः अस्ति तत्र भावे कर्मणि प्रयोगः। तत्र भावे कर्तरि प्रयोगः अस्ति अपि भावे अथवा कर्मणि प्रयोगः अस्ति। तत्र कर्मणि प्रयोगः कदा भवति वीरा भगिनी? धातुः भवति चेत् कर्मणि प्रयोगः भवति। धातुः कीदृशः अस्ति चेत् भावे प्रयोगः।
भावे प्रयोगे कर्मणि प्रयोगे कुदा भवति इति वा?
हा कदा
धातुः कर्मणि प्रयोगः भवति यत्र यत्र धातुः किमस्ति धातुः कर्ता धातुः कर्म आश्रित्य कर्म आश्रित्य
सकर्मक सकर्मक धातुः अस्ति चेत्
कर्मणि प्रयोगः भवति।
यदि अस्ति चेत्
अकर्मक अस्ति चेत् भावे प्रयोगः भवति।
तत्र कर्मपदम् अस्ति नास्ति इति विषयः नास्ति। केवलं तत्र धातुः कीदृशः इति तत्र विषयः। अथवा तत्र यदि तत्र मया पठ्यते इति अस्ति वाक्यं तत् मया पठ्यते इति तत्र भावे प्रयोगः वा कर्मणि प्रयोगः?
कर्म नास्ति तत्र, भावे प्रयोगः एव अस्ति।
न भवती किम् उक्तवती तत्र? भवती उक्तवती तत्र सकर्मकः धातुः अस्ति चेत् भावे प्रयोगः, सकर्मकः धातुः अस्ति चेत् कर्मणि प्रयोगः। सत्यं खलु? तत्र अतः तत्र कर्मपदम् अस्ति नास्ति इति दृष्ट्वा प्रयोगः कीदृशः इति वक्तव्यः वा, अथवा तत्र
धातुः कीदृशः अस्ति इति?
अस्तु, अतः अत्र पट् धातुः कीदृशः?
पट् धातुः सकर्मकः।
अतः तत्र मया पठ्यते इति अस्ति, तद् वाक्यं कर्मणि प्रयोगः वा भावे प्रयोगः वा?
मया पठ्यते, मया पुस्तकं पठ्यते इति कर्मणि प्रयोगः
इति भवितुमर्हति।
सकर्मकधातुः अस्ति तदेव तत्र कर्मणि प्रयोग एव इति वक्तुं शक्यते।
कर्मपदं नास्ति किन्तु कर्मणि प्रयोगः एव। मया पठ्यते कर्मणि प्रयोगः, यतोहि पठ् धातुः सकर्मकः अस्ति। भगिनी नमस्कारः।
नमस्कारः महोदय।
नमस्कारः भगिनी। हा इदानीं तत्र मया पठ्यते इति किमर्थं कर्मणि प्रयोगः इति स्वशब्दैः किञ्चित् वदति वा भगिनी शोभा भगिनी?
आं महोदय, तत्र यथा भवता उक्तं तत्र कर्मणि अपि कर्तरि अपि भावे प्रयोगः। कर्मणि प्रयोगः सकर्मकधातूनाम् एव भवति यदि वाक्ये कर्मपदम् अस्ति वा न वा। अपि च तदा यदि कर्मपदम् अस्ति चेत् क्रियापदं कर्मपदम् अनुसृत्य भवति। अपि च भावे प्रयोगाः तु अकर्मकधातूनां कृते एव, तत्र कर्मपदस्य प्रसङ्गः एव नास्ति। अपि च भावप्रयोगे क्रियापदानि सर्वदा आत्मनेपदी रूपे एकवचने प्रथमपुरुषे एव भवन्ति।
भवति, हा। अतः तत्र मूलभेदः धातुः कीदृशः इति.
धातुः कीदृशः, अकर्मकः वा सकर्मकः वा इति दृष्ट्वा निर्णेतुं शक्नुमः.
हा, तत्र
कर्मणि भवति वा अथवा भावे भवति वा इति वाक्यं दृष्ट्वा वक्तुं.
हा, तत्र कर्मपदं नास्ति इति कृत्वा भावे प्रयोगः इति यदि वदामः दोषाय इति.
आं महोदय.
हा, मया पठ्यते तत्र कर्मपदं नास्ति अतः भावे प्रयोगः इति न वक्तव्यं, कर्मणि प्रयोगः एव. कर्मपदं नास्ति तेन किम् इति चिन्तनीयम्. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र हर्षदा भगिनी तत्र पट् धातुः इति स्वीकृत्य कर्तरिप्रयोगे पठति इति भवति पट् धातुः. तत्र इदानीं तत्र किं कुर्मः यदि कर्मणि रूपम् इच्छामः लट् लकारे किं कुर्मः?
लट् लकारे कर्मणि प्रयोगः इच्छामः तदा पट् इति धातु अधिक य अधिक आत्मनेपदी प्रत्यये ते
पठ्यते. समीचीनम्. इदानीं तत्र पठति इति कर्तरि लट्, पठ्यते इति कर्तरि लोट्. इदानीं तत्र कर्तरि लो क्षम्यतां, पठति इति कर्तरि लट्, पठ्यते इति कर्तर कर्मणि लट्. इदानीं तत्र कर्तरि लोट् पठतु इति अस्ति. इदानीं कर्मणि लोट् इच्छामश्चेत् किं कुर्मः?
पठ्यतां भवति आत्मनेपदी, आत्मनेपदी इव रूपं भवति.
हा, अतः तत्र सोपानानि कानि तत्र लट् लकाररूपं पठति इति स्वीकृत्य पठ्यते इति कुर्मः तत्र
कर्मणि प्रयोग कुर्मः.
तदनन्तरं तत्र लोट् लकारः कः इति जानीमः.
आम् आम्.
अतः तत्र पठतु इति पदस्य कर्मणि इच्छामश्चेत् पठ् इति धातु स्वीकृत्य पठ्यते इति प्रथमसोपानं लट् लकारः. तदनन्तरं वयं सुलभतया अवगच्छामः, अस्तु पठ्यते अस्ति चेत् लोट् लकारः पठ्यताम् इति एव भवति. अतः लोट् लकार इच्छामश्चेत् कर्मणि लोट् तत्र कर्मणि लट् कृत्वा तदनन्तरं कर्मणि लोट् सुलभः भवति. अतः अस्तु, इदानीं तत्र वेदा भगिनी समीचीनं भगिनी. अस्तु, वेदा भगिनी इदानीं तत्र पठ्यते इति उक्तम्, इदानीं तत्र अन्यानि कुर्मः. तत्र जपति इति, तत्र जपति इति कर्तरि लट्, तत्र कर्मणि लोट् किम् इति वदतु भगिनी. सोपानं वयं वदतु यथा तत् पठति इति
जपति इति लट् कर्तरि लट् कर्मणि कर्मणि लट् भवति तस्य कर्म तस्य कर्मणि रूपं भवति वा? ओके, जप्यते जप्यते इति एकवचने प्रथमपुरुषे एकवचने जप्यते इति रूपे आयाति.
वदतु यथा तत्र मया उक्तं पठति इति पठति पठ्यते पठ्यताम् तथैव तत्र जपति
जपति जप्यते जप्यताम्
जप्यताम्. हा, इदानीं तत्र पश्यति इति तत्र दृश्यते इति भवति.
पश्यति दृश्यते दृश्यताम्.
हा, अस्तु, इदानीं तत्र शोभा भगिनी जानाति तत्र
जानाति जानाति परस्मैपदी प्रथमपुरुषे कर्तरि तत्र ज्ञा इति धातुः यक् योजनेन ज्ञायते इति भवति. अपि च ज्ञाय ज्ञायताम् इति
रूपं समीचीनं
रूपं लोट् लकारे.
अतः तत्र जानाति
जानाति ज्ञायते ज्ञायताम्
हा इति समीचीनं भगिनि. अस्तु, इदानीं तत्र हर्षदा भगिनि सहते इति अस्ति आत्मनिपदि धातु.
सहते सह्यते सह्यताम्
सह्यताम् इति समीचीनम्. अपि वन्दते
वन्दते वन्द्यते वन्द्यताम्
वन्द्यताम् हा अस्तु समीचीनम्. अस्तु, शुभभगिनि तत्र सेवते इति
सेवते आत्मनिपदि धातुः सेव्यते सेव्यताम् इति भवति.
सेव्यताम् हा सेवते सेव्ये सेव्यते अपि सेव्यः समीचीनम् अस्तु इदानीं तत्र बेडा भगिनी इदानीं तत्र लभते
लभते लभते ओ लभते अर्ध ओके आत्मनेपदिरूपं लभते लभते लभ्यते लभ्येताम्
लभ्यतां लभ्यतां
लभते लभ्ये लभ्यते लभ्यताम् आम् लभते लभ्यते लभ्यताम्
लभते कर्तरि लट्
आम् आम्
कर्मणि लट् अस्ति लभ्यते यकारः
आम्
तदनन्तरं कर्मणि लभ्यताम्
द्विवचने उक्तवती लभ्येताम् इति
हा हा चिन्ता मास्तु किन्तु तत्र अत्र कर्तरि लोट् अपि वदतु लभते इति तत्र किं भवति
कर्तरि लोट् लभते इत्युक्ते लभते लभ्यताम् लभते लभते लभयोगतां
लभताम् इति लभते कर्तरि लट् कर्तरि लोट् लभतां कर्मणि लट् अस्ति लभ्यते
लभ्यता
अस्ति लभ्य
लभ्यताम्
लभ्यतां तावदेव अतः तत्र केवलं यकारस्य योजनं करणीयं तदनन्तरम् आत्मनिपदि धातु इव एव चिन्तनं भवति तत्र तत्र आत्मनि तत्र यकारस्य योजनेन कर्तरि रूपं
यक् आयाति यक्
कुर्मः तत्र लभते इति कर्तरि लट् अस्ति लभ्य इति धातु नूतनधातुः भवति तदनन्तरं तत्र आत्मनि प्रत्ययस्य योजनेन किं भवति लभ्यते किन्तु तद् कर्तरि लट् अस्ति लभ्य इति धातोः कर्तरि लट् अस्ति लभ्यते किन्तु एतत् पदं लब्धातोः कर्मणि रूपम् अस्ति कर्मणि लट् अतः सुलभमेव तत्र कर्तृतः कर्मणि सुलभतया कर्तुं शक्नुमः अस्तु इदानीं तत्र शोभा भगिनी इदानीं तत्र पठति इति तत्र पठ्यताम् इति लोट्लकारः कर्मणि लोट् इति अस्ति पठ्यताम् इति इदानीं तत्र नवरूपाणि वदतु तत्र पठ्यतां
कर्तव्य वा महोदय
कर्मणि
कर्मणि हा हा पठताम् इति कर्तरि लोट् पठ्यतां पठ्येतां पठ्यन्तां पठ्यस्व पठ्येतां पठ्यध्वं पठ्यै पठ्यावहै पठ्यामहै महोदय
कनेक्षन् लास्ट् मी
ओ
क्षम्यतां तत्र कनेक्षन् भग्नः जातः तत्र तावत् तत्र पठ्यताम् इति
अस्य भावप्रयोगः लोट् लकारे कर्मणि प्रयोगः लोट् लकारे
कर्मणि लोट्
पठ्यतां पठ्येतां पठ्यन्तां पठ्यस्व पठ्येतां पठ्यध्वं पठ्यै पठ्यावहै पठ्यामहै
हा इति भवति अस्तु समीचीनं हा अस्तु तथैव तत्र अन्य अन्यस्य अपि करोतु तत्र एतत् इदानीं तत्र हा पश्यति इति
पश्यति पश्यति इति दृश् धातुः लोट्लकारे लट्लकारे
कर्मणि लोट् कर्मणि लोट्
कर्मणि लोट् अस्तु पश्य दृश्यतां दृश्यतां दृश्यताम् इति भवति दृश्यतां दृश्येतां दृश्यन्तां दृश्यस्व दृश्येतां दृश्यध्वं दृश्यै दृश्यावहै दृश्यामहै
हा समीचीनम् अस्तु इदानीं हर्षदा भगिनी इदानीं तत्र जानाति इति तत्र जानाति इति कर्त्री लट् तत्र कर्मणि लोट् रूपाणि
कर्मणि लोट् ज्ञायतां ज्ञायेतां ज्ञायन्तां ज्ञायस्व ज्ञायेथां ज्ञायेध्वं ज्ञायध्वं ज्ञायै ज्ञायध्वं ज्ञायै ज्ञायावहै ज्ञायामहै
हा इति समीचीनं भगिनि हा अस्तु इदानीं तत्र तत्र घायति तत्र किं भवति तत्र घायति
अरिपापे कठिन धा धातु अस्ति धा
गीयते गीयते इति
गायति अहं श्रुतवती ध्यायति अस्तु अस्तु
गायति गायति
गायति गीयति गीयति गीयते इति कर्मणि लट् लकार गीयतां गीयेतां गीयन्तां गीयस्व गीयेथां गीयध्वं गीयै गीयावहै गीयामहै
हा इति अस्तु समीचीनम् अस्तु वेदा भगिनी इदानीं तत्र एतत् सर्वं तत्र हा जयति तत्र जीयते हा जयति जीयते इति अस्ति
जीयते
जयति जीयते जीयते कर्मणि लोट् जीयते जीयते जीयतां जीयेतां जीयन्तां जीयस्व जीयेथां जीयध्वं जीयै जीयावहै जीयामहै
हा इति अस्ति अस्तु समीचीनम् अस्तु इदानीं तत्र केवलम् अन्यस्य अपि तत्र पुनरेकवारम् एकमेकं कुर्मः तत्र ततः तत्र शोभा भगिनी तत्र वदति इति धातुः तत्र उद्यते इति रूपं कर्मणि रूपम् उद्यते कर्तरि लट् कर्मणि लट् अस्ति उद्यते कर्मणि लट्
हा उद्य इति अङ्गम् उद्यतां कर्मणि लोट् उद्यताम् उद्येताम् उद्यन्ताम् उद्यस्व उद्येथाम् उद्यध्वम् उद्यै उद्यावहै उद्यामहै
हा इति अस्ति अस्तु समीचीनम् हर्षदा भगिनी तत्र वच् धातुः भक्ति इति कर्तरि लट्
उच्यते उच्यताम् उच्येताम् उच्यन्ताम् उच्यस्व उच्यथाम् उच्चध्वम् उच्चै उच्यावहै उच्यामहै
हा इति अस्ति समीचीनम् अस्तु वेदा भगिनी तत्र वहति इति अस्ति कर्तरि
उह्यते वा
उह्यते हा समीचीनम् उह्यते इति
उह्यताम् उह्येताम् उह्यन्ताम् उह्यस्व उह्येथाम् उह्यत्वम् उह्यै उह्यावहै उह्यामहै
हा इति अस्ति समीचीनम् अस्तु तर्हि अतः तत्र पुनस्मरणं कृतम् इदानीं तत्र मूलपाठः यः अस्ति तम् इदानीं पठामः अतः तत्र
महोदय क्षम्यताम् एका विनन्ति कर्तुम् इच्छामि
हा
वर्गस्य ध्वनिमुद्रां भवान् किञ्चित् पूर्वं स्थापयितुं शक्नोति वा? अहं गतवासरे न आसम्, तो यः रात्रौ रेकार्डिङ्ग् आगतं बहु श्रोतुं न शक्नोति.
भगिनी क्षम्यतां, यतोहि तत्र
अस्तु क्षम्यतां,
अद्य आरभ्य तत्र अहं तत्र शीघ्रमेव प्रेषयामि भगिनि.
कृपया रिविजन् कृते लाभदायक भवति.
न न सत्यमेव, अहं शीघ्रं.
धन्यवादः
भगिनि. क्षम्यताम्. अस्तु, अतः तत्र वयं कुत्र स्मः इत्युक्ते, तत्र प्रथमपुटं पठितवन्तः, द्वितीयपुटं तत्र द्वितीयपुटात् आरम्भं कुर्मः तर्हि. अस्तु, तत्र पेज् 135 वेदा भगिनी आरम्भं करोति वा?
तत्र कर्णः महाशय रथाः यत्र तत् पठितवन्तः, अग्रे पठामि वा? द्रोणः अस्तु व्यूहपत्रं पठ्यताम्.
वयं तत्र वत्स यशोवता समेद्यताम् इति ततः एव आरम्भं कुर्मः. यतोहि तत्र सर्वेषां कृते तत्र अवगमनं भवेत्.
अस्तु महोदय. द्रोणः वत्स यशोवता समेध्यताम्. यशोवता समेध्यताम्, यशोवान् एधताम् इति अर्थं वा तत्र? यशोवान् एधताम् कर्तृप्रयोगे.
हा, तत्र एदथाम् इति संयोगः एदथाम् इति एव भवति इति मन्ये भगिनि. सत्यम्. एद् इति धातुः, सम् इति उपसर्गः, तत्र समेदथाम्, तत्र भावे प्रयोगे समेद्यते, तदनन्तरं समेद्य ताम् खलु,
समेद्यते.
तत्र समेधते कर्तरि लट्, समेध्यते कर्मणि लट्.
समेध्यते समेध्यते,
समेध्यते तदनन्तरं समेध्यताम् इति तत्र यशोवता समेध्यताम्. इदानीं कर्तरि रूपं वदतु तत्र.
एकवचने अस्ति इति मन्ये, यशोवता.
यशोवत् अस्तु, समीचीनम्. इदानीं तत्र कर्तृरूपं वदतु भगिनि. तत्र
कर्तृरूपं वत्स वत्स यशोवान् एदतां वा? न, यशोवान् कर्तरि लट्लकारे वा लोट्लकारे वा?
लोट्लकारे एव अस्ति खलु, अतः लोट्लकारे
यशोवान् एदतु.
तत्र एद् इति आत्मनिपदि धातुः अस्ति भगिनि.
ओ एध, आम् आम्, एधते करेक्ट्, आत्मनिपदि अस्ति. वत्स यशोवान् एधते, न एतं वा, वन्दे एधे यशोवान् एधे समेधे
समेधे अस्तु यशोवान्. अस्तु समीचीनम्, एतत् सोपानेन कुर्मः. यशोवान् समेधे इति समेधते इति भवति, यतोहि प्रथमपुरुषः खलु, एदते इति अस्ति रूपम्. एदे किम् अस्ति?
समेध्यते इति
न, तत्र एधे इति अपि अस्ति, किन्तु कर्त्रि लट् एव अस्ति एधे, किन्तु प्रथमपुरुषः अस्ति वा, मध्यमपुरुषः अस्ति वा, उत्तमपुरुषः अस्ति वा?
एकनिमिषं महोदय. वन्दे वन्दते वन्देते एवम् अस्ति. सो किं वदामि अहं,
सत्यं, वन्दते वन्देते वन्दन्ते. एद् धातुः अस्ति चेत्
वन्दते वन्दन्ते, तो द्विवचनम् अस्ति वा तत्र?
एदे वन्द धातुः,
वन्दे एद् दातु एदे, आम् आम्, प्रथम पुरुष एकवचनम् एदे.
न न भगिनि, अस्तु सम्यक् पश्यामः. तत्र बन्धधातुः आत्मनिपदि धातुः बन्धधातुः इदानीं तत्र नवरूपाणि एकवारं वदतु
वन्दते वन्देते
प्रथमपुरुषे एकवचनं किम् इति वदतु
एकवचनं
प्रथमपुरुषे एकवचनं किम् अस्ति
वन्दधातुः वन्दते वन्देते वन्दन्ते
हा वन्दते वन्देते वन्दन्ते अस्ति अस्तु इदानीं मध्यमपुरुषे
मध्यमपुरुषे वन्दे वन्दते वन्देते वन्दन्ते वन्द वन्दथाः एवं वा वन्दथाः वा किम् अस्ति तत्र थास् प्रत्यय या वन्दथाः
भगिनि तत्र वन्दसे खलु आत्मनिपदि धातुः अस्ति तत्र केवलं लट् लकारः खलु
वन्दस्व वन्देथा
लट् लकारः लोट् लकारः सर्वं मेलनं मास्तु तर्हि लट् तत्र वन्द् धातुः कर्तरि लट् किम् अस्ति
वन्दते वन्देते वन्दन्ते
वन्दन्ते तदनन्तरं मध्यमपुरुषे
वन्दसे वन्द वन्दसे वन्देथे वन्दद्वे
पुरुषे
वन्दे वन्दावहे वन्दामहे
हा वन्दे इति अस्ति इदानीं तत्र एद् इति धातुः अस्ति चेत् तत्र प्रथमपुरुषे एकवचनं
एदते एधे एदत्ते
न तु एदे एदे किं भवति
एदे किं भवति
एदते अस्ति प्रथमपुरुष एकवचनरूपम् आम्
आम्
किन्तु एधे इति उत्तमपुरुष एकवचनं
करेक्ट् वन्दे इति एधे उत्तमपुरुष एकवचनम्
किन्तु अत्र प्रथमपुरुष एकवचनरूपम् इच्छामः अतः तत्र एतत् सम् इति उपसर्गः अतः समेधते
समेधते
यशोवान्
क्षम्यते
इति कर्तरि लट् अस्ति किन्तु कर्मणि तत्र कर्तरि लोट् किम् अस्ति
कर्तरि लोट् कर्तरि लोट्
भवती उक्तवती कर्तरि लट्
उत्तम प्रथमपुरुषे एकवचने एदतु
किमर्थम् एदतु
कर्त्री लोट् इति भवान् उक्तवान्
कर्त्री लोट् किमस्ति कर्त्री लट् पुनः एकवारं वदतु रूपं वाक्यस्य वाक्यस्य
कर्त्री लट् इति धातु अस्ति एवं भवान् उक्तवान् खलु आत्मनेपदि धातु तदेव लट् लोट्लकारे लोट्लकारे कर्तरि लोट्लकारे धातु एदताम् एदताम्
अतः कर्तरि लोट् किम् अस्ति पूर्णवाक्यं
कर्तरि लोट् वत्स यशोवान् एदताम्
समेदताम् यशोवान् समेधताम् इति अस्ति अस्तु समीचीनं भगिनि हा यशोवान् समेधताम् इति अस्ति अस्तु हा अग्रे
भीष्मः आचार्य ममापि एष नमस्कारः
ममापि एषः
मम अपि एष नमस्कारः
नमस्कारः
नमस्कार एषः तस्य विशेषणम् अस्ति नमस्कारः इति अहं मन्ये
मम
अपि एषः नमस्कारः
इति अस्तु समीचीनम् अस्तु अपर्णा भगिनी नमस्कारः पुटसङ्ख्या अस्ति 135 भगिनि
नमस्कारः
नमस्कारः भगिनि पुटसङ्ख्या 135 अस्तु इदानीं तत्र शोभा भगिनी इदानीं तत्र मम अपि एषः नमस्कारः इति तत्र क्रियापदं साक्षात् क्रियापदं न दत्तं किन्तु किं भवति तत्र
अस्ति इति भवति महोदय
अस्ति भवति समीचीनम् अतः तत्र अपि एतत् कर्तरि लट् एव अस्ति मम अपि एषः नमस्कारः अस्ति तत्र कर्मणि लट् रूपं किं भवति
कर्मणि लट् मयापि एषः नमस्कारः कर्तृपदं
मया तृतीया भवति मम अपि
मम अपि एषः नमस्कारः
तत्र मम अस्तु अस्तु तत्र तृतीया नास्ति नास्ति षष्ठी अस्ति मम अपि एषः नमस्कारः तत्र
अतः तत्र भावे भावे प्रयोगः इदानीं खलु अस्ति इति
अक्षमतां भावे प्रयोगः
भावे प्रयोगः अस्ति इति क्रियापदस्य भावे
प्रयोगः भूयते इति भवति मम अपि एषः नमस्कारः भूयते
अस्तु तत्र अस्ति इति क्रियापदं वाक्ये तत्र कर्मपदमस्ति
क्षमतां मया अपि एषः नमस्कारः भूयते
अस्तु तत्र अस्ति इति क्रियापदं खलु भगिनि अङ्गीकरोति खलु तत्र अस्ति इति क्रियापदं तत्र किम् अस्ति नमस्कारः अस्ति अतः नमस्कारः किं भवति कर्तृपदं खलु
कर्तृपदं भवति नमस्कारः अस्ति अस्तु महोदय
इदानीं किं भवति विशेषणं
विशेषणम् आम् 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 मम अपि एकनिमिषं महोदय एषः इत्यस्य एतया
एतया इति स्त्रीलिङ्गे किन्तु
एतेन एतेन
क्षम्यतां
मम अपि एतेन नमस्कारेण भूयते
हा इति एव भवति समीचीनं चिन्तमस्तु भगिनि तत्र वयं ज्ञातवन्तः पूर्वमपि तत्र केवलं कर्तृपदस्य कर्मपदस्य क्रियापदस्य अपि कर्तृपदस्य विशेषणं वा कर्मपदस्य विशेषणं वा तेषामेव तत्र परिवर्तनं भवति अन्येषां पदानां तत्र पञ्चविभक्ति विभक्त्यन्तं पदम् अथवा षष्टिविभक्त्यन्तं पदम् अस्ति चेत् तत्र परिवर्तनं न भवति
तत्र नमस्कारः कर्तृपदं भवति इत्यस्मिन् किञ्चित् भ्रमः अभवत् महोदय
अतः एव तत्र अभ्यासः
धन्यवादः
प्रश्नः पृष्टः अस्तु समीचीनं हा अस्तु इदानीम् अग्रे तत्र हर्षदा भगिनि अग्रिमवाक्यम्
आम् पितामहः मया एव ननु भवान् अभिवाद्यताम् मया अहम् एव ननु भवता अभि भवन्तम् अहम् एव ननु भवन्तम् अभिवाद्यताम्
तत्र अभिवादयति इति भवति भगिनि
अभिवादयामि अभिवादयामि
अभिवादयामि इति समीचीनं हा अहमेव भवन्तम् अभिवादयामि
अभिवादये किल अभिवादये
आम् आम् अभिवादये आम् 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 लोट्लकार अभिवादये
रूपद्वयमपि भवितुम् अर्हति सत्यमेव तत्र नीति अस्ति अत्र आत्मनेपदीरूपमपि भवति अस्तु अभिवादये अपि तत्र वक्तुं शक्नुमः इदानीं तत्र एतत् तु अस्ति कर्तरि लट् इदानीं तत्र कर्तरि लोट् किमस्ति
अभिवादयानि अहम् एव ननु भवन्तम् अभिवादयानि न
अपि आत्मनेपदीरूपम् इति चिन्तयामश्चेत् तत्र अहमपि ननु भवन्तम् अभिवादयते इति रूपद्वयमस्ति अभिवादयति अस्ति चेत् अभिवादयानि अभिवादयते इति चिन्तयामश्चेत् तत्र अभिवादयताम्
हा अभिवादयताम् आम् आम्
अभिवादय
उत्तमपुरुषे महोदय अभिवादयै
क्षम्यताम्
अभिवादयै भविष्यति न महोदय
अभिवादयै हा धन्यवादः भगिनि
उत्तमपुरुषे बहु भ्रमं भवति यदि अन्य कोऽपि वदति तत्समये सर्व आगच्छति स्वस्य समये आगच्छति तत्समये बहु भ्रमं भवति
सत्यम् हा पुनः इदानीं कुर्मः तर्हि तत्र अहमेव ननु
भवन्तम् अभि अहम् एव ननु भवन्तम् अभिवादयानि अथवा अभिवादयै
हा अभिवादयै हा इति समीचीनम् अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रे तत्र हा अग्रे अपर्णा भगिनी तत्र मया एव
मया भीष्मः वदति मया एव अभिवाद्यताम्
हा पुनः एतदेव वाक्यम्
अहम् एव अभिवादयै
अभिवादयै हा समीचीनम्
अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै
तत्र
कर्तरि अस्ति कर्मणि अथवा आवाभ्यां
तत्र क्रियापदं किमस्ति अभिवन्द्यावहै
अभिवन्द्यावहै इति क्रियापदमस्ति
कर्मणि लोट् रूपमस्ति तत्र वचनं किम् अपि तत्र
कर्तरि लोट् अस्ति महोदय
कर्मणि लोट् अस्ति कर्मणि लोट् एव अस्ति इदानीं तत्र अभिवन्द्यावहै इति अस्ति तत्र वचनं किम् अपि पुरुषः कः इति वदतु भगिनि
उत्तमपुरुष द्विवचनं
हा समीचीनम् अतः तत्र कर्मणि प्रयोगः इति कृत्वा तत्र कर्मपदस्य कर्मपदं किम् इति इदानीं वदतु यतोहि उत्तमपुरुषः द्विवचनं रूपम् इति उक्तवती क्रियापदस्य अपि कर्मणि प्रयोगे क्रियापदं किं पदम् अनुसरति वचने पुरुषे
कर्मपदं
हा
कर्मपदम् अनुसरति अन्योन्यं
न अन्योन्यम् अव्ययम् अस्ति किन्तु तत्र यदि उत्तमपुरुषः अस्ति चेत् उत्तमपुरुष द्विवचनमस्ति चेत् तत्र एकमेव पदं तत्र भवितुम् अर्हति तत्र कर्मपदम् तत्र आभाम् इति एव खलु तत्र उत्तमपुरुष केवलं रूपत्रयमस्ति अहम् आवां वयम् अतः तत्र आवाम् अतः तत्र आवाम् अभिवन्द्याभ इति आवाम् इति कर्मपदमस्ति इदानीं तत्र कर्तृपदं कर्तृपदं कीदृशं भवति कर्मणि पदे विभक्ति विभक्तिपादस्य कर्तृपदस्य
कर्तृपदस्य तृतीया भवति
अत्र
कर्मपदस्य प्रथमा भवति प्रयत्नं करोमि आवाम्
तत्र अभिवन्द्यावहे इति क्रियापदं खलु भगिनि तत्र अन्योन्यम् इति अव्ययमस्ति क्रियाविशेषणम् इति अपि वक्तुं शक्नुमः किन्तु त्यजामः तत् आवाम् इति कर्मपदं यत् साक्षात् पदम् अस्ति तद् दृष्ट्वा आवाम् इति यत् बाकी अस्ति आवाम् इति पदं तदस्ति कर्मपदं प्रथमाविभक्त्यन्तम् इदानीं तृतीयाविभक्त्यन्तपदम् अस्ति वा वाक्ये
अस्ति आवाभ्याम् अस्ति
आवाभ्याम् अस्ति
आवाभ्याम् इति तृतीयाविभक्त्यन्तम् अस्ति
तदेव केवलं तदेव अस्ति अतः तत्पदमेव कर्तृपदं भवेत् खलु तत्र आवाभ्याम् इति कर्तृपदस्य तृतीयविभक्त्यन्तरूपम् अतः तत्र कर्तृपदं किं प्रथमविभक्त्यन्तरूपं कर्तृपदस्य आवामेव आवामेव अतः कर्तृपदमपि आवां कर्मपदे पदमपि आवां क्रियापदम् अभिवन्द्यावह इति कर्मणि लोट् अस्ति इदानीं तत्र कर्मणि कर्त्री लोट् इच्छामश्चेत् तत्र किं कुर्मः तत्र धातुः कः इति
आवाम् अभिवन्द्यावहे अन्योन्यम् अभिवन्द्यावहे
हा किन्तु तत्र इदानीं कर्तृरूपं वदति वा?
कर्तृरूपमेव आवाभ्याम् इति तृतीया अस्ति, प्रथमा भवति आवाम्।
आवाम् अस्तु, समीचीनम्। इदानीं कर्मपदमपि आवाम् अस्ति, अतः तत्र तत्र द्वितीया विभक्तिरूपं किमस्ति आवाम् इति पदस्य?
आवाम् इत्येव भवति,
आवाम् इति एव भवति। अतः तत्र कर्तृरूपं गच्छामः चेत् आवाम् आवाम् द्विवारम् आगच्छति। हा, किन्तु तत्र यकारस्य आवश्यकता नास्ति खलु, यतोहि इदानीं कर्तरी अस्ति, इदानीं कर्तृप्रयोगः। अतः तत्र
बन्ध्यावहै अभिवन्द्यावहे,
किन्तु तत् अस्ति वन्दावहे अस्ति, तत्र लट् लकारः कर्तरि लट् कर्तरि लोट्
अभिवन्दावहै।
हा, समीचीनं खलु?
समीचीनं महोदय, दोषाः अभवन्।
अत्र एषः भागः बहु भ्रमजनकः अस्ति। शोभा भगिनी जानाति तत्र अस्मिन् पुटे वयं बहुवारम् अन्यस्मिन् वर्गे तत्र अस्मिन् पुटे एव तत्र बहुवारं पठितवन्तः खलु शोभा भगिनी?
आं महोदय, तथापि अभ्यासः न भवति चेत् इत्युक्ते तस्य ज्ञानस्य अभ्यासः न भवति चेत् न तिष्ठति स्मरणे,
न तिष्ठति, सत्यं भगिनि। अतः चिन्ता मास्तु, चिन्ता मास्तु,
महोदय अहम् उक्तवती न, स्वस्य समयः आगच्छति तदा बहु भ्रमं भवति, अन्यत् कोऽपि वदति तदा सर्वम् आगच्छति।
अतः चिन्ता मास्तु, तत्र अपि अहं न जानामि किमर्थम् एषः भागः बहु भ्रमजनकः अस्ति। अतः तत्र यतोहि तत्र बहु किमपि दत्तमस्ति, अपि अन्य अस्ति, तत्र सरलवाक्यानि न सन्ति अत्र, केवलं तत्र कर्तृपदं क्रियापदं कर्मपदम् इति तादृशं रूपम् अस्ति चेत् वयं सुलभतया कुर्मः, किन्तु यदि दीर्घवाक्यम् अस्ति अथवा अनेके भागाः सन्ति चेत् क्लेशः एव भवति। अस्तु,
क्लिष्टकररचना एव अस्ति तत्र महोदय, वाक्यानां।
सत्यं सत्यं, अग्रे इदानीम् अग्रे तत्र वेदा भगिनी इदानीम् अग्रे तत्र द्रोणः।
द्रोणः अस्तु, आवाभ्यां परस्परं हस्ताः गृह्यन्ताम्
गृह्यन्ताम् इति अस्ति। कर्तृपदं किम् इति किञ्चित् वदतु तत्र।
आवाभ्यां परस्परं हस्ताः गृह्यन्ताम् इति लोट्लकार आयाति, तस्य
कर्मणि प्रयोगः
आवाभ्यां कर्ता अस्ति, परस्परं हस्ताः इति कर्मपदमस्ति, गृह्यन्ताम्
धातुः कः?
गृहधातु,
गृह्धातुः। अस्तु, तत्र इदानीं तत्र इदानीं तत्र कर्तृरूपं वदतु तर्हि।
कर्तृरूपम् आवाभ्याम् अयं किं वदति, आवाभ्याम् अपि पूर्वमेव दृष्टवन्तः, आवाम् आवां परस्परं परस्परं हस्तः किं हस्तान् अवाभ्यां परस्परं हस्तान् नै नाट् अवाभ्याम् आवां परस्परं हस्तान् कर्तरीरूपं गृह्यन्तः न सारि न आवां परस्परं हस्तान् आवान् द्वितीय द्विवचनं भवति तत्र पठति पठतः गृह्यन्तः इति
तत्र समीचीनं
गृह गृहधातु न गृहधातु गृहधातु गृह्णाति गृह्णाति गृह्णतः
गृह्णन्ति
आवां परस्परं हस्तान् गृह्यन् गृहन् किं वदामि गृहधातु गृहन्तः
भगिनि तत्र आवाम् इति उत्तमपुरुषः अस्ति न तु
तत्र
गृह्णीवः इति
गृह्णाव न
गृह्णीवः इति लट्लकारे लट्लकाररूपम् एकवारं वदतु कर्तरि लट् अस्ति
कर्तरि आवां परस्परं हस्तान्
हस्तान् गृह्णीवः इति गृह्णीवः इति अस्ति इदानीं तत्र कर्तरि लोट् अस्ति
गृह्णीवः वा किमर्थं महोदय
कर्तरि लट् अस्ति कर्तरि लट् अस्ति गृह्णीवः किं भगिनि
गृह्णावः
न न गृह्णीवः इति अस्ति भगिनि
इकार किं किमर्थम्
इकारः
ओके गृह्णीवः ओके
तत्र गृह्णीवः इति रूपं किन्तु तत्र किं भवति तत्र लोट् इच्छामश्चेत् तत्र गृह्णाभ
कर्तरि लोट् वा
कर्तरि लोट् अस्ति गृह्णाभ इति
गृह्णाभ करेक्ट्
अतः तत्र अपि तत्र गृहधातुः तत्र उभयपदी अस्ति अतः तत्र
आत्मनेपदीरूपं
कर्तृ लोट् अपि तत्र
कर्त्री
गृह्ण्यै गृह्णै इति अपि भवति किन्तु गृह्णाव गृह्णावः इति अपि वक्तुं शक्नुमः किन्तु मास्तु केवलं तत्र एतदेव स्वीकुर्मः तत्र अतः तत्र गृह्णाति इति स्वीकुर्मश्चेत् तत्र गृह्णाव इति भवति
गृह्णाव
लोट् उत्तमपुरुष द्विवचनरूपम् अतः आवां परस्परं हस्तान्
गृह्णाः
अस्तु समीचीनम् अग्रिमम्
दुर्योधनः वदति आचार्य आगम्यताम् अत्र आचार्य आगच्छतु अत्र
तत्र भवता आगम्यताम्
भवान् आगच्छतु अत्र
भवान् आगच्छतु अत्र समीचीनं
प्रियमित्रेण करणेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः अत्र किं करणीयं महोदय किमपि बोल्ड् मध्ये नास्ति अस्ति
इति तत्र कर्मणि अर्थे अस्ति तत्र नाम अहं तत्र ग्रन्थम् अहं ग्रन्थं पठितवान्
करोमि करोमि प्रियमित्रं करणः भवन्तं सूचनाम् अनुसृत्य व्यूहं रचितवान्
इति समीचीनं किन्तु तत्र केवलं तत्र किमर्थं भवन्तः इति अस्ति
भवन्तं
किमर्थं भवतः इति किमस्ति
भवतः भवतः अस्ति चेत् कन्फ्यूजन्
तत् अतः भगिनि तत्र केवलम् एतत् स्वीकुर्मः लघुवाक्यं करणेन व्यूहः रचितः इति लघुवाक्यम् अस्ति वा समीचीनं वा करणेन व्यूहः रचितः तत्र अहं ग्रन्थं पठितवान् इति अस्ति चेत् कर्तृ अर्थे अहं ग्रन्थं पठितवान् अथवा पठितवती स्त्रीलिङ्गे, किन्तु तत्र कर्मणि अर्थे तत्र कृत प्रत्ययस्य योजनेन किं भवति, मया ग्रन्थः पठितः
पठितः आम् आम्
मया ग्रन्थः पठितः. इदानीं तादृशः अस्ति मया ग्रन्थः पठितः, तादृशः अस्ति कर्णेन व्यूहः रचितः, खलु?
हा हा अस्तु 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 ज्ञातवती ज्ञातवती. दोषः अभवत् दोषः अभवत्. प्रियमित्रं कर्णः भवतः सूचनाम् अनुसृत्य व्यूहं रचितवान्.
हा इति अस्ति, यतोहि तत्र सूचनाम् अनुसृत्य इति भिन्नं भागम् अस्ति, केवलं तत्र रचितः इति तत्र एव रचितवान् इति आवश्यकता.
अस्तु अस्तु, व्यूहः इति कर्मपदमस्ति, तस्य द्वितीया करणीय, प्रियमित्रेण करणीय इति कर्तु कर्ता अस्ति, तस्य प्रथमा करणीय.
तावदेव, हा उत्तमं.
तावदेव
प्रियमित्रं कर्णः.
इदानीं वीक्ष्यताम्, इदानीं भवान् वीक्षताम् वीक्षताम् गच्छति य
गच्छति तत्र भवता वीक्ष्यताम् अथवा भवान् वीक्षताम् आत्मनि दातुः अस्ति. समीचीनम्. अग्रेषो भगिनि अग्रिमवाक्यम्
आं महोदय, अहं पूर्वस्मिन् वर्गे अपि तदेव कृतवती, करोमि वा पुनः?
करोतु भगिनि, चिन्ता मास्तु.
कर्णः महाशय, रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः. इमे गजाः, इमे अश्वाः, एते पदातयः च अवलोक्यन्ताम्. कर्णः वदति महाशय, तत्र महोदय रथाः स्थापिताः सन्ति इति अस्ति. प्रथमं रथाः स्थापिताः सन्ति,
स्थापिताः स्थापिताः के तत्र रथाः,
रथाः स्थापिताः, तत्र क्रियापदं भवति चेत् सन्ति इति भवति. कर्मणि अस्ति यत्र
अपि तत्र भगिनि तत्र यथा तत्र मया ग्रन्थः पठितः अथवा कर्णेन व्यूहः रचितः, अत्रापि तत्र
मया स्थापिताः सन्ति.
हा मया
रथाः,
समीचीनं, रथाः स्थापिताः
सन्ति,
स्थापिताः सन्ति, इदानीं सन्ति इति त्यजामः.
मया रथाः स्थापिताः,
रक्तप्रत्ययस्य योजनं प्रयोगः अस्ति अत्र, कर्मण्यर्थे अस्ति, यतोहि मया इति कर्मण्यर्थे अस्ति. इदानीं कर्तृर्थे किं भवति,
कर्तृर्थे भवति चेत् अहं रथान् यत्र,
केवलं लघुवाक्यं वदतु, केवलं
मया रथान् तत्र स्थापितवान्.
हा मया रथाः स्थापिताः इति कर्मणि रूपं, कर्तृरूपम् अहं रथान् स्थापितवान्
तत्र स्थापितवान्
स्थापितवान् इदानीं तत्र रथान् स्थापितवान्. इदानीं तत्र सूचिताः इति अपि अस्ति, सूचिताः सूचिताः के रथाः एव,
रथाः एव सूचिताः.
अत्र तत्र किं भवति, तत्र
अहं सूचितान् रथान् तत्र स्थापितवान्
इति भवति, तावदेव. हा अहं सूचितान् रथान् तत्र स्थापितवान्. तत्र यथा स्थाप्यन्ताम् इति अस्ति, तत्र तत् भिन्नमस्ति, भिन्नभागः. एतादृशवाक्यस्य तत्र पूर्णकर्तृरूपम् अग्रे न्यास्यामः, इदानीं मास्तु, किन्तु एतद् भागं समीचीनं. तत्र सूचितान् रथान् तत्र स्थापितवान्
इति
समीचीनम्. अग्रे
इमे अतः तत्र इमान् इति भवति, इमान् गजान्, इमान् अश्वान्, एतान् पदाति तत्र हरीन् पदातीन् च अवलोक्यन्ताम् इति अस्ति, अतः अवलोकताम् इति भवति.
अस्तु, किञ्चित् विवृणोतु तर्हि तत्र तत्र अवलोक्यन्ताम् इति अस्ति तत्र अवलोक्यन्ताम् क्रियापदम्
अवैति उपसर्गः तत्र लोकताम् इति अवलोकने इति भवति तत्र किं
समीचीनं
अतः तत्र अवलोक्यन्ताम् इति कर्मणि प्रयोगे भवति तत्र लोट्लकारे दत्तम् अतः तत्र यकारः यक् न आगच्छति चेत् तदेव रूपम् अवलोकताम् इति भवति
समीचीनम्
किन्तु अवलोकन्ताम् तत्र बहुवचनम् अस्ति न पदात् अवलोक्य तत्र अधुना न भवति अधुना भवान् अवलोकताम् इति एव भवति
अस्तु तत्र अतः तत्र किञ्चित् वदतु भगिनि तत्र अवलोकम् इति क्रियापदम् अस्तु
इति क्रियापदम्
अस्तु क्रियापदं
तत्र कर्मणि अस्ति चेत् तत्र अवलोक्यन्ताम् इति कर्मणि तत्र क्रिया तस्य कर्मपदानि गजाः अश्वाः पदातयः भवन्ति
अस्तु समीचीनम् अतः तत्र अवलोक्यन्ताम् इति बहुवचने अस्ति यतोहि कर्मपदं बहुवचने अस्ति
बहुवचने अस्ति अतः तत्र अवलोक्यन्ताम् इति अभवत् गजाः अश्वाः पदातयः सन्ति
कर्तृपदं दत्तं वा वाक्ये अथवा न दत्तम्
तत्र तदेव गजाः अश्वाः
कर्मपदमस्ति
कर्मपदं भवति तत्र कर्तृपदं तत्र भवता इति भवनीयं
तावदेव
भवता अवलोक्यन्ताम् इति
भवता इमे गजा
तत्र बहुवचनं गजाः अश्वाः तेषां कृते अस्ति इति कृत्वा बहुवचनं भवति किन्तु भवता अवलोक्यन्ताम् इति भवति
अस्तु समीचीनम् इदानीं कर्तरिरूपं वदतु पुनः भवान्
इमान् गजान् इमान् अश्वान् एतान् पदातीन् च अवलोकताम्
इदानीं समीचीनम् अवलोकताम् उत्तमम् अस्तु समीचीनं भगिनि अस्तु अग्रे अपर्णा भगिनि
द्रोणः वदति अस्तु व्यूहपत्रं पठ्यतां मम उत्तरीयं किञ्चित् उन्नीयताम्
अत्र व्यूहपत्रं पठ्यतां तत्र
भवता
कर्मपदं किं कर्तृपदं किं
कर्मपदं व्यूहपत्रं कर्तृपदं भवान् भवता
न दत्तं किन्तु स्थापयितुं शक्नुमः
भवता व्यूहपत्रं पठ्यतां भवान् व्यूहपत्रं पठताम्
पठतु यतोहि पट् धातुः
परस्मैकधातुः
अस्ति
भवान् व्यूहपत्रं पठतु मम उत्तरीयं
तत्र यदि तत्र सर्वे मिलित्वा पठामः इति इच्छा अस्ति चेत् नाम तत्र अस्माभिः व्यूहपत्रं पठ्यताम् इति अपि स्थापितुं शक्नुमः न जानीमः केवलम् अभ्यासार्थं वदामि अस्माभिः व्यूहपत्रं पठ्यताम् इति अपि भवितुमर्हति खलु यतोहि तत्र कर्तृपदं न दत्तं चेत् अस्माभिः अपि तत्र स्थापितुं शक्नुमः पठ्यताम् इति केवलं तत्र कर्मपदम् अनुसरति तत्र कर्तृपदं किम् इति न जानीमः अस्माभिः इति नाम मिलित्वा वयं सर्वे मिलित्वा पठामः इति द्रोणस्य
अस्माभिः व्यूहपत्रं पठ्यतां कर्तरिरूपे वयं व्यूहपत्रं पठामः
पठामः इति लट् कर्तरि लट् अस्ति कर्तरि लोट् अस्ति
पठामः
विसर्गः नास्ति तावदेव वयं पठामः तावत् वयं व्यूहपत्रं पठामः समीचीनं अस्तु अग्रे
मम उत्तरीयं किञ्चित् उन्नीयताम्
तत्र प्रायशः भवता इति एव अस्ति भवता
भवता मम उत्तरीयं किञ्चित् भवता उन्नीयतां मम उत्तरीयं किञ्चित् भवान् मम उत्तरीयं किञ्चित्
तत्र नयति इति परस्मैपदधातुः
उन्नयतु
उन्नयतु इति भवति तावदेव भवान् मम उत्तरीयं किञ्चित् उन्नयतु इति अस्ति समीचीनम् अस्तु अग्रे वेदा भगिनी
हा महोदय दुर्योधनः आचार्य तव धीमता शिष्येण दृष्टुद्युम्नेन व्यूढा चमुः दृश्यताम् आचार्य किं वदत् दुर्योधनः वदति आचार्य सम्बोधनमस्ति तव धीमता तव इत्युक्ते तृतीया विभक्ति शब्दस्य
भगिनी एकनिमिष
षष्टिविभक्ति तव
तत्र क्रियापदं किमस्ति अस्मिन् वाक्ये
अस्मिन् वाक्ये दृश्यताम्
अस्तु इदानीं तत्र कर्तृपदं किं भवेत्
कर्तृपदं
पश्यति
व्यूढा
न कर्तृपदं
व्यूढा चमुः
भगिनि कर्तृपदं तत्र दुर्योधनः वदति आचार्य नाम द्रोणम् उद्दिश्य वदति खलु तत्र किं वदति भवान् पश्यतु इति प्रायशः भवेत् खलु
पश्यतु किं पश्यतु
किन्तु तत्र भवान् इति एव भवेत् खलु अतः तत्र अस्मिन् वाक्ये कर्मणि रूपम् अस्ति यतोहि दृश्यताम् इति अस्ति अतः भवान् पश्यतु इति स्थाने किं भवति कर्मणि रूपम् दृश्यताम् अस्ति चेत् भवान् एव
कर्तरीरूपं वा किं महोदय कर्तरीरूपं वा
भगिनि अस्मिन् वाक्ये कर्तृपदं यदि कर्तृपदम् अस्ति वा अस्मिन् वाक्ये दृश्यताम् इति क्रियापदं कर्तृपदम् अस्ति वा अस्मिन् वाक्ये
न भवान् इति भवान् एव
भवान् इति पद्मविभक्त्यन्तं कर्मणि प्रयोगे रूपं किं भवति
भवान् भवन्तौ भवन्तः भवता भवता
बहुवारम् उक्तम् अस्मिन् वर्गे बहुवारम् उक्तं भवता भवता इति भवता दृश्यताम् इति अस्ति समीचीनम् इदानीं भवता भवता दृश्यता
भवता पश्यता
न इदानीं भवता दृश्यताम् लघुवाक्यं भवता दृश्यताम् कर्तृपदं भवता क्रियापदं दृश्यताम् इति इदानीं कर्मपदं किमस्ति
चमुः
हा समीचीनं चमुः अतः लघुवाक्यम् अत्र अस्ति भवता चमुः
दृश्यताम्
इदानीम् एतत् कर्मणि रूपम् अस्ति तत्सर्वं
त्यजामि
लघुवाक्यस्य कर्तृरूपं वदतु भवता चमुः दृश्यताम् इति लघुवाक्यम् इदानीं कर्तृरूपं किम् अस्ति
कर्तृरूपं वा कर्तृरूपं कर्तृरूपं भवान् भवान् चमुः तस्य किं चमुः चमूं भवान् चमूं भवान् चमू भवान् चमून् पश्यतु
हा उत्तमं भगिनि भवान् चमूं पश्यतु अस्तु इदानीम् अन्य तत्र अन्यानि पदानि सन्ति इति कृत्वा तत्र एकमेकं दृष्ट्वा वदतु तत्र परिवर्तनं भवति न वा इति वदतु तत्र तव इति
परिवर्तनं षष्टिविभक्ति धीमता शिष्येण तत्र धीमता तृतीयाविभक्ति शिष्येण अपि
तृतीयाविभक्ति वदतु परिवर्तनं करणीयं न अथवा न आम् अथवा न तावदेव वदतु तव परिवर्तनम् अथवा न
न षष्टिविभक्ति न
अस्तु धीमता शिष्येण
तत्रापि न
अस्तु दृष्टद्युम्नेन
तत् विशेषणमेव अस्ति धीमता शिष्येन दुष्टुद्युम्नेन इति
तथा तत्रापि न अस्तु इदानीं
व्यूढा चमुः तस्य विशेषणम् अस्ति वा व्यूढा चमुः
समीचीनं
व्यूढा चमूम् इति उक्तवती चेत् व्यूढम् इति अपि
व्यूढां व्यूढां चमूं
व्यूढां चमूं
व्यूढा इति स्त्रीलिङ्गपदमस्ति आकारान्त स्त्रीलिङ्गपदं प्रथमविभक्तिरूपम् अस्ति अत्र यतोहि चमुः इति कर्मपदं तस्य प्रथमविभक्तिरूपम् अतः तत्र किं भवति भवान् चमुं चमुं पश्यतु चमुम् इति तस्य विशेषणमपि स्थापयामः व्यूढां चमुं पश्यतु कीदृशं केन व्यूढां केन
शिष्येन दृष्टुम्नेन व्यूढा
व्यूढा नाम किं व्यूढा नाम रचिता अथवा तत्र तत्र चमु स्थापिता तत्र तत्र सः किमपि रचितवान् अथवा सङ्ग्रहणं कृतवान् अतः तत्र व्यूढाम् इति अस्ति व्यूढा चमुः व्यूढा इति स्त्रीलिङ्गरूपम् अस्ति विशेषणमस्ति तत्र दृष्टद्युम्नेन व्यूढा तत्र अहं तत्र
कीदृश शिष्यः वा
न स्मरामि कोऽपि स्मरति वा तत्र तत्र थ प्रत्ययः एव भवति तत्र इति मन्ये व्यूढा इति दृष्टद्युम्नेन व्यूढा यथा तत्र मया पठितं पुस्तकं तत्र पठितं तादृश
अथवा व्यूढा एव भवति महोदय चमूः इति स्त्रीलिङ्गे अस्ति
हा हा किन्तु तत्र धातुः कः इति न स्मरामि भगिनि
वह् धातुः
किं भगिनि
वह् वहति
हा अस्तु वह् धातुः अस्तु समीचीनं
तस्य रूपं व्यूढा किमर्थं भवति वह् धातुः अस्ति चेत्
व्यूढा किन्तु तत्र होढः इत्यनेन ढकारः व्यूहः तत्र दृष्टवती पूर्वं तदेव आसीत् पुनः पश्यामि
परन्तु धातुः किम् अस्ति भगिनि
वह् इति मन्ये भगिनि पुनरेकवारं दृष्ट्वा वदामि व्यूहः इति एव अस्ति एकक्षणं महोदय वि उपसर्गपूर्वकः ऊह ऊह् इति दत्तं तत्र किन्तु ऊह् इति
ब इति धातुः तत्र त प्रत्ययस्य योजनेन ऊढः अथवा ऊढा इति भवति तदेव अस्ति बि इति उपसर्गः क्षम्यतां हा व्यूढ हा
सो बि उपसर्गः ऊह् धातु वा
ऊह् धातुः
ओके
ऊह् धातुः हा बि उपसर्ग ऊह् धातुः
ओके तत्र धीमता शिष्येन दुष्टुदुम्नेन व्यूढा धीमता शिष्येन तव धीमता शिष्येन दुष्टुदुम्नेन व्यूढा तत्र षष्टिविभक्ति धीमता शिष्येन तृतीयाविभक्ति
केवलं तत्र दृश्यताम् इति एव तत्र परिवर्तनं न तु व्यूढा इति तस्य परिवर्तनं न कुर्मः अत्र अतः भवान् तव धीमता शिष्येण दृष्टद्युम्नेन व्यूढां चमुं पश्यतु अस्तु अग्रे
अत्र महेश्वासाः शूराः भीमार्जुना समाः सन्ति तत्र धातु तत्र महेश्वासाः शूराः भीमार्जुना
समाः कर्तृरूपं वा कर्मणि रूपं वा
महोदय तत्र बहुवचने अस्ति महेश्वासाः शूराः भीमार्जुना
कर्तृरूपं वा कर्मणि रूपं वा अत्र अथवा कर्तृप्रयोगः वा
कर्तृप्रयोगे एव
तत्र क्रियापदं किमस्ति
अस्तु सन्ति
सन्ति अस्तु इदानीं तत्र भावे प्रयोगे भावे प्रयोगः रूपं किम् इति वदतु तत्र भावे
अस्ति चेत् भूयते भूयते किं बहुवचने किम् अस्ति भूधातुतः भू किं न जानामि
भावे प्रयोगे एकः नियमः आसीत् तत्र कर्मणि प्रयोगे तत्र धातूनां तत्र अस्तु तत्र चिन्तयामः भगिनि तत्र छात्रः अस्ति इदानीं तत्र कर्मणि रूपं किम् अस्ति भगिनि वेरा भगिनि छात्रः अस्ति कर्तृरूपं
छात्रः अस्ति छात्रैः
छात्रः अस्ति एकवचने छात्रः अस्ति
इदानीं
भावप्रयोगः कः अस्य वाक्यस्य
छात्रैः
किमर्थं बहुवचनं
भूते वा
न न छात्रः एव एकवचने एव अस्ति खलु भगिनि छात्रः
वा ओके ओके क्युकि सर्वे बहुवचने अस्ति न तदेव छात्रः
भवती एव एकवारं वाक्यं वदतु छात्रः अस्ति वदतु
छात्रः अस्ति छात्रेण भूते वा न भूते
भूयते किन्तु पूर्णवाक्यं वदतु छात्रः अस्ति
छात्रः अस्ति छात्रेण भूयते
छात्रेण भूयते समीचीनम् इदानीं तत्र कर्मपदम् अस्ति वा
न कोऽपि
कर्मपदं नास्ति स्थापितुं शक्नुमः वा
किं महोदय
कर्मपदं स्थापितुं शक्नुमः वा
न अस्तु अस्ति तत्तु अकर्मकः अस्ति
अस्तु इदानीं तत्र छात्राः सन्ति इति स्वीकरोतु
छात्राः सन्ति छात्रैः तत्र भूते भूयते 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 भूयन्ते न प्रथम पुरुष एवं प्रथम भावे प्रयोग प्रथम पुरुषे एव अस्ति तदेव छात्रैः भूयते
प्रथमपुरुष किमर्थम् एकवचनं छात्राः इति आसीत् छात्रैः इति अस्ति बहुवचने अस्ति
आम् परन्तु भावे प्रयोगः अस्ति न महोदय तत्र भावे प्रयोग प्रथमवचने एव उपयोगं कर्तुं
शक्यते रूपमेव भवति समीचीनं प्रथमपुरुष एकवचनरूपमेव सर्वदा भवति भावे प्रयोगे अतः अत्रापि भावे प्रयोगः कः इति वदतु
भावे प्रयोग
अस्मिन् वाक्ये पाठे यः
भूयते छात्रैः भूयते
किन्तु इदानीं तत्र भवती पठितवती खलु अत्र महेश्वासाः शूराः
अत्र महेश्वासाः शूराः भीमार्जुनसमाः तत्र महेश्वासैः शूरैः भीमार्जुनसमैः भूयते
हा उत्तमं हा तथैव अस्ति अस्तु समीचीनम् अग्रे हर्षदा भगिनि
आम् कर्णः वदति सखे परेषां विषये चिन्ता त्यजतां भवता अस्माकं जनाः नायकाः च गण्यताम्
गण्यन्ताम्
भवता परेषां विषये चिन्ता त्यजतां भवान् परेषां विषये चिन्तां त्यजतु
त्यजतु समीचीनं हा भवान् परेषां विषये चिन्तां त्यजतु
अस्माकं जनाः नायकाः च गण्यन्ताम्
तत्र
भवता गण्यन्ताम्
भवता गण्यन्ताम् समीचीनं
भवान् अस्माकं जनान् नायकान् च गणयतु
गणयतु इति समीचीनम् अस्तु अग्रिमवाक्यम्
दुर्योधनः वदति द्विजोत्तम मम सैन्यस्य नायकाः एते मम सैन्यस्य एते मम सैन्यस्य नायकाः
सन्ति
आम् सन्ति
इदानीं तत्र कर्मणि रूपं भावप्रयोगरूपं वदतु तत्र तस्य
भूयते एतै मम सैन्यस्य नायकैः एतैः भूयते
इति अस्ति समीचीनम्
द्रोणः वदति अस्तु श्राव्यन्ताम् श्राव्यन्ताम् कर्ता किम् अध्याकरणीय अत्र श्राव्यन्ताम्
तत्र भवता
भवान् भवान् श्राव्यन्तां भावे प्रयोगः भवता श्राव्यन्तां भवता श्राव्यन्तां
भवता श्राव्यन्तां भवान्
श्रावयतु
श्रावयतु तावदेव भवान् श्रावयतु तावदेव अस्तु अग्रे
भवान् भीष्मः कृपः अश्वत्थामा विकर्णः भूरिश्रवाः एते कर्णादयः अन्ये अपि मदर्थे त्यक्तजीविताः सन्ति
सन्ति समीचीनं
भवता भीष्मेण कृपेण अश्वत्थामा तृतीया किम् अश्वत्थामन् अश्वत्थामा
तत्र अश्वत्थामन् इति प्रायः अस्ति भगिनि
अश्वत्थामन् अश्वत्थामना अश्वत्थामना विकर्णेन भूरिश्रवैः एतेन
तत्र प्रायः सकारान्तपदम् अस्ति भगिनि
भूरिश्रवा किम् अस्ति महोदय किमस्ति नेट्वर्क् सम्यक् नास्ति मम नेट्वर्क्
प्रायशः सकारान्तपदम् अस्ति इति मन्ये भगिनि
भूरिश्रवस् भूरिश्रवस् अस्तु अस्तु अतः भूरिश्रवाः
मम चिन्तनमस्ति तत्र सकारान्तपदं भवेत् इति अतः तत्र भूरिश्रवसा अथवा तादृशं किमपि भवेत्
अस्तु अस्तु भूरिश्रवसा एतेन एतैः
कर्णादयैः
अन्ये अपि मदर्थे त्यक्तजीवि
अन्यैः
किं भविष्यति त्यक्तजीविता हि एव तिष्ठति न
त्यक्तजीवितैः
त्यक्तजीवितैः भूयते
भूयते नाम तत्र किं वदति ये जनाः तत्र भवान् भीष्मः कृपः अनेके जनाः ये सन्ति भवन्तः सर्वे अन्ये अपि कीदृशः जनाः सन्ति मदर्थे त्यक्तजीविताः
वयं शिक्षाकृते अन्वयकृतवन्तः महोदय
हा
एतस्य श्लोकस्य
हा अस्तु ओ इति वा भगिनि समीचीनम् नाम तत्र जीवनं त्यक्तुं सिद्धाः भवन्तः सर्वे
मम कृते एते सर्वे जीवनं त्यक्तुं सिद्धाः सन्ति इति तस्य
तादृशजनाः अत्र सन्ति
आम् 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 आम्
अतः तत्र भूयते इति स्थापनीय तावत् तृतीयविभक्तिरूपं भू अपि भूयते इति तावदेव अन्यत् कार्यम् अत्र नास्ति अस्तु अग्रे शोभा भगिनि
आं महोदय प्रतिहतम् अमङ्गलं जीवितानि न त्यज्यन्ताम् तत्र प्रथमवाक्ये तदेव अस्ति महोदय प्रतिहतम् अमङ्गलम् अपि च जीवितानि इति तत्र कर्मपदं भवति जीवितानि न त्यज्यन्ताम् इति
कर्म कर्तृपदं किमस्ति न दत्तम् इति मन्ये
हा अस्माभिः
अस्माभिः अपि अथवा भवता अपि
भवता अथवा हा भवता जीवितानि न त्यज्यन्ताम् अतः भवान् जीवितान् न त्यज्यताम्
जीवितानि नपुंसकलिङ्गे अस्ति
जीवितानि एव क्षम्यतां जीवितानि न त्यज्यताम्
त्यजतु खलु त्यजति
हा त्यजतु परस्मैपदी अस्ति किल महोदय तत्र हा क्षम्यतां त्यजतु एव हा
भवान् जीवितानि
भवान् जी हा भवान् जीवितानि न त्यजतु
न त्यजतु हा तत्र इति अस्ति समीचीनम् अस्तु अग्रे
अग्रे दुर्योधनः वदति आचार्य अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन न भूयते तत्र न भूयते इति किं न भूयते बलेन पर्याप्तेन न भूयते अपि च अनेन तत्र अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन
भाविप्रयोगः केवलं कर्तृपदमेव भवति खलु भाविप्रयोगे केवलं कर्तृपदमेव भवति अतः तत्र तत्र सः अस्ति इति कर्तृरूपं सः अस्ति तत्र तेन भूयते इति भवति
तेन भूयते इति भवति आम् तत्र भूयते इति क्रियापदस्य अन्वयः
तत्र कर्तृ कर्मपदं किमस्ति अत्र
किं महोदय
कर्तृपदं किमस्ति अस्मिन् वाक्ये
कर्तृपदं तत्र पर्याप्तेन इति पर्याप्तेन न भूयते बलेन पर्याप्तेन न भूयते इति अस्ति किल महोदय
सत्यं सत्यं तदेव अस्ति हा अस्माकं तत्र बलं बलं अस्माकं पर्याप्तं
न भवति न भवति इति हा अत्र तर्हि तत्र अनेन भीष्माभिरक्षितेन अस्माकं बलं पर्याप्तं न न भवति
अथवा नास्ति इति तत्र न जानीमः किन्तु तत्र सन्दर्भानुसारणं तत्र न नाम अस्ति चेत् सः अस्ति तेन भूयते सः भवति
तेन भूयते
किन्तु साधारणतया भवति अस्ति तत्र तयोः मध्ये अर्थभेदः स्थूलरूपेण अर्थभेदः नास्ति किन्तु सूक्ष्मरूपेण अर्थभेदः वर्तते नाम अस्ति सः सर्वदा अस्ति किन्तु तत्र इदानीं तत्र एषः युवराजः अस्ति सः राजः भवति तत्र परिवर्तनं यदा यत्र अस्ति तत्र भवति इति तत्र तस्य प्रयोगः भवति तत्र सः युवराजः अस्ति सः राजः अस्ति इति न वक्तुं शक्नुमः खलु तत्र सः राजः भवति तत्र अतः तत्र भूधातुः अस्धातुः समानं किन्तु
वाक्या तत्र वाक्यानुसारं
अर्थः
भिन्नः भवति
अत्र तु प्रायशः अस्धातुः एव समीचीनम् इति मन्ये यतोहि सः केवलं वदति अस्माकं बलं बलम्
अधुना नास्ति इति पर्याप्तं नास्ति इति
अधुना पर्याप्तं नास्ति नाम तत्र अस्माकं बलं तस्य सीमा नास्ति इति सः वक्तुम् इच्छति भीमाभिरक्षितेन अस्माकं बलं तत्र तस्य बहु महत्वम् अस्ति महत् अस्ति अस्माकं बलम् इति वक्तुम् अतः तत्र पर्याप्तं नास्ति अस्माकं बलं पर्याप्तं नास्ति किन्तु अग्रे तेन नाम तत्र पाण्डवसैन्यस्य इदानीं
तेन भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये तत्र पुनः भूयते किम् इत्युक्ते पर्याप्तेन भूयते केन इत्युक्ते सैन्येन पर्याप्तेन भूयते इति तत्र अन्वयः भवति क्रियापदस्य तावदेव तत्र कर्तरी भवति चेत् तेन भीमाभिरक्षितेन पाण्डवानां सैन्यं पर्याप्तं भवति इति मन्ये
अथवा अस्ति पर्याप्तं
पर्याप्तम् अस्ति अस्ति
इति मन्ये यतोहि वयं जानीमः खलु तत्र पाण्डवानां सैन्यं लघु आसीत् कौरवानां सैन्यं बृहत्
आसीत्
न तत्र एतस्य बलं पर्याप्तं नास्ति अन्ये तत्र पाण्डवानां सैन्यं तु न्यूनम् अस्ति इति कृत्वा तत्र पर्याप्तम् अस्ति इति वदति सः
किन्तु तत्र अर्थः यतोहि दुर्योधनस्य सैन्यं महोदय तत्र महत् अस्ति महान् अस्ति चेदपि सः चिन्तयति पर्याप्तम् इत्युक्ते किं तत्र इनफ् नास्ति इति
पर्याप्तं नास्ति नाम तत्र धनयितुं न शक्नुमः इति अर्थः भगिनि तत्र तादृश तत्र सीमा एव नास्ति इति पर्याप्तं नाम लिमिट् अत्र तत्र न पर्याप्तं नाम लिमिट्लेस् इति अर्थः
अहं अहं श्रुतवती तत् सः चिन्ता करोति पर्याप्तं नास्ति इति तत्र तस्य किं भीतिः अथवा चिन्ताक्रान्तः भवति इति
समीचीनं जानामि भगिनि
यतोहि तस्य कृते भीष्मभिरक्षितेन भीष्मे विश्वासः नास्ति अपि च तत्र भीमाभिरक्षितेन तत्र भीमे अधिकविश्वासम् अस्ति इति श्रुतवती अतः सः तस्य मनसि विश्वासमेव नास्ति मम सैन्य इति श्रुतवती महोदय अस्तु
भवितुं भवति भगिनि प्रायः तत्र अत्र अत्र एकः अर्थः अस्ति तत्र पर्याप्तं न नाम तत्र लिमिट्लेस् इति प्रायशः अन्यः अपि अर्थः तत्र नाम सीमितम् अस्ति इति प्रायशः तदपि चिन्तितुं शक्नुमः न जानामि भगिनि हा
तत्र तावदेव किल महोदय
तावदेव अस्ति अस्तु अग्रे अपर्णा भगिनि
भीष्मः वदति वत्स सातङ्कहृदयेन भवता अवाच्यम् उच्यते वत्स सातङ्कहृदयं भवान् अवाच्यं वदति
अथवा वक्ति समीचीनं
वक्ति
समीचीनम् अस्तु अग्रे
दुर्योधनः वदति आचार्य एतेन वृद्धेन पितामहेन किमपि चिन्त्यतां नाम आचार्य एषः वृद्धः पितामहः किमपि चिन्तताम्
चिन्तयतु चिन्तयतु तत्र चिन्तयतु अथवा चिन्तयतु किमस्ति तत्र
चिन्तयतु
चिन्तयति हा तत्र चिन्तयत चिन्तयतु किमपि सः
वृद्धः एषः वृद्धः पितामहः किमपि चिन्तयतु नाम
चिन्तयतु नाम नाम तत्र नाम इति पदस्य अर्थः कः एतद् भवतु तत्र वयं वदामः अस्तु एतद् अस्ति भवतु नाम किन्तु अग्रे सरामः ओ अत्र क्लेशः भवतु नाम क्लेशः नास्ति वा भवतु नाम किमपि भवतु तत्र तस्य महत्त्वं नास्ति वयम् अग्रे सरामः तत्र नाम इति तत्र प्रयोगः एकः अर्थः नाम इति एकः अर्थः अस्ति अर्थः मीनिङ्ग् तत्र किमपि पदं वदामः नाम किम् इति यदि वदामः तत्र तस्य पदस्य अर्थः कः इति किन्तु अत्र नाम इति पदस्य अर्थः अस्ति तत्र अस्तु तदस्ति वा किन्तु त्यजामः भीष्मः सः अस्ति सः किमपि चिन्तयति तेन किम् इति अर्थः
भवद्भिः सर्वैः यथा भागं यथा स्थानम् अवस्थितैः भूयताम् भवन्तः सर्वे यथा भागं यथा स्थानम् अवस्थिताः
इदानीं भवन्तु
भवन्तु अवस्थिताः भवन्तु
अवस्थितः भवन्तु नाम स्थानं स्वीकुर्वन्तु सर्वे स्वस्य स्थानं स्वीकुर्वन्तु सर्वे भवन्तः सर्वे इति अस्ति अस्तु अतः तत्र एतस्य पाठस्य समाप्तिः शीघ्रं भवति इति मन्ये अग्रिमे वर्गे कुर्मः तत्र नाम पाठः नाम सम्भाषणं तदनन्तरम् अभ्यासः तु सन्ति एव अस्तु समीचीनं वयम् अद्य बहु किमपि कृतवन्तः उत्तममस्ति अस्तु तर्हि तत्र शोभा भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि
आं महोदय वदामि ॐ सर्वे भवन्तु सुखिनः सर्वे भवन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय नमस्कारः
धन्यवादः
धन्यवादः महोदय
धन्यवादः
धन्यवादः महोदय शुभरात्रि
धन्यवादः भगिनि